राम गीता जी का पाठ 15वां अध्याय श्लोक 11 से अध्याय समाप्ति तक। राम
वसुदेव सुतं पंचजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् यतन्तो योगिनस्तेन पश्यन्त्यात्मन्यवस्थितम् यतन्तो प्रकृतात्मानो नैनं पश्यन्त्यतेतस यदा देत्यगतं त्वेदो जगद्वासगते किलम् यत्सङ्गमसि यत्साग्नो तत्तेजो विद्धि मामकम् रामावेश्यति भूतानि धारयाम्यहमोजसा उष्णामेकौषधीः सर्वा सोमो भूतरसात्मक अहङ्गैश्वानरो भूत्वा प्राणिनां देहमाश्रित प्राणापानसमाजोष्ट गजानन्नं चतुर्विधम् शर एव शर सर्वाणि भूतानि उषोचर उच्यते उत्तमः पुरुषस्य परमात्मे चुदाधिप यो लोकत्रयमाविश्य व्यय ईश्वर यस्मात्क्षरमतीतोः मक्षरादपि चोत्तम वशोऽस्मि लोके विलेश प्रसीत पुरुषोत्तम यो मामेवमसंयो पुरुषोत्तमम् स सर्ववित् भजति माम् सर्वभारेण भारत इति गुह्यतमम् शास्त्र निजमुक्तम् मयानव एतद्बोध्वा बुद्धिमान् स्यात् कृतज्ञस्य भारत कृतज्ञस्य भारत ॐ तत्सदे श्रीमद्भगवद्गीतासुपनिषत्सूर्यविद्यायां भूपार्श्वे श्रीकृष्णादिसंवादे पुरुषोक्तिनां पण्डितः वसुदेवसुतं देवम् पंचजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरि शरणं हरि शरणं हरि शरणं हरे शरणं हरे शरणं हरे शरणम 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 हरे शरणम।